अस्य श्री अंगारक कवच स्तोत्र महामंत्रस्य विरूपाक्ष ऋषिः गायत्री छन्दः अंगारको देवता अम् बीजं गम् शक्तिः रम् कीलकम् मम अंगारक प्रसाद सिद्ध्यर्थे जपे विनियोगः। नमाम्यंगारकं देवं रक्तांगं वरभूषणं जानुस्थं वामहस्ताभ्यां जापेषु वरपाणिनं चतुर्भुजं मेषवाहं वरदं च धरासुतं शक्तिशूलगदा खड्गं ज्वालापुञ्जोर्ध्वकेशवं मेरुं प्रदक्षिणं कृत्वा सर्वदेवात्मसिद्धिदं अंगारकशिरो रक्षेत् मुखं वैदरणीसुतः कर्णौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः नासिकां मे शक्तिधरः कंठं मे पातु भौमकः भुजौ तु रक्तमाली च हस्तशूलधरस्तथा चतुर्भुजो मे हृदयं कुक्षिं रोगापहारकः कटिं मे भूमिजः पातु पादौ भौमः सदा मम सर्वाणि यानि चाङ्गानि रक्षेन्मे मेषवाहनः य इदं कवचं दिव्यं सर्वशत्रुविनाशनं भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदं सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभं भुक्तिमुक्तिप्रदं ऋणां सर्वसौभाग्यवर्धनं ऋणबन्धविमोचं च सत्यमेव न संशयः स्तोत्रपाठस्तु कर्तव्यो देवस्याग्रे समाहितः रक्तगन्धाक्षतैः पुष्पैः धूपदीपगुढोदनैः मङ्गलं पूजयित्वा तु मङ्गले हनि सर्वदा ब्रह्माणान् भोजयेत् पश्चात् चतुरोद्वादशोऽथवा अनेन विधिना यास्तु कृत्वा व्रतमनुत्तमम् व्रतं सदैव कुर्वीत सप्तवारेषु वा यदि तेषां शस्त्राण्युत्फलानि वह्नि स्याच्चन्द्रशीतलः न चैवं व्यादयन्त्यस्मान् मृगपक्षिगजादयः महां दतमसे प्राप्ते मार्ताण्डस्योदयादिव विलयं यान्ति पापानि शतजन्मार्जितानि वै।